कर्तव्यं वो न पश्यामि स्याच्चेत् किं नोपपद्यते मन्ये मत्पावनायैव प्रस्थानं भवतामिह।
कर्तव्यमिति कर्तव्यं कार्यं वह युष्माकं न पश्यामि निस्पृहत्वादिति भावः। अथ स्याच्चेत् विद्येत यदि किं नोपपद्यते किं नाम न सम्भवति सर्वं सुलभमेवेत्यर्थः। अथवा किमत्र प्रयोजनचिन्तया इत्याह मत्पावनाय मच्छोदनायैव भवताम् इह विषये प्रस्थानम् इमं देशम् उद्दिश्य इदं प्रयाणमित्यर्थः। मन्ये तर्कयामि
तथापि तावत् कस्मिंश्चित् आज्ञां मे दातुमर्हत विनियोग प्रसादा हि किंकराः प्रभविष्णुषु।
तथापीति तथापि भवतां निस्पृहत्वेऽपि कस्मिंश्चित् कर्मणीति शेषः आज्ञामिदं कुरु इत्यादेशं तावत् इदानीं मे मह्यं दातुम् अर्हत मदनुग्रहबुद्ध्येति भावः। हि यस्मात् किङ्कराः भृत्याः प्रभवन्तीति प्रभविष्णुषु प्रभुषु विषये भुवश्च इति इष्णुच् प्रत्ययः विशेषेण नियोगः विनियोगः प्रेषणमेव प्रसादः अनुग्रहः येषां ते तथोक्ताः। अन्यथा स्वस्वामिभावः निष्फलः इति भावः।
एते वयम् अमीदाराः कन्येयम् कुलजीवितम् ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु।
एत इति किम् बहुना एते वयम् अमीदाराः इयम् कुलस्य जीवितम् प्राणभृताम् परमप्रेमास्पदम् इत्यर्थः। कन्या अत्र येषाम् मध्ये येन जनेन वह कार्यम् प्रयोजनम् ब्रूत तमिति शेषः येन सोऽपि दीयते इति भावः। रत्नहिरण्यादिकम् तु न मे गण्यमित्याह बाह्यवस्तुषु कनकरत्नादिषु अनास्था अनादरः प्रसज्यप्रतिषेधेऽपि नैसमासः इष्यते अदेयम् न किञ्चिदस्तीति भावः।
इत्यूचिवांस्तमेवार्थम् गुहामुखविसर्पिणा द्विरिव प्रतिशब्देन व्याजहार हिमालयः।
इति ऊचिवान् उक्तवान् वचेः क्वसु प्रत्ययः हिमालयः हिमवान् गुहानाम् मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थम् द्विः द्विवारम् द्वित्रिचतुर्भ्यः सुच् इति सुच् प्रत्ययः व्याजहार बभाषे।
अथाङ्गिरसमग्रण्यम् उदाहरणवस्तुषु ऋषयो नोदयामासुः प्रत्युवाच स भूधरम्।
अथेति अथ अनन्तरम् ऋषयः उदाहरणानि कथाप्रसङ्गाः त एव वस्तूनि अर्थाः तेषु अग्रम् नयतीति अग्रणीः तम् अग्रगण्यम् प्रगल्भम्। सत्सु द्विष इत्यादिना क्विप अग्रग्रामाभ्याम् नयतेरिति वक्तव्यम् इति णत्वम् अङ्गिरसम् नाम ऋषिम् नोदयामासुः प्रतिवक्तुम् प्रेरयामासुः सः अङ्गिराः भूधरम् हिमवन्तम् प्रत्युवाच
उपपन्नमिदम् सर्वम् अतः परमपि त्वयि मनसः शिखराणाम् च सदृशीते समुन्नतिः
उपपन्नमिति इदम् एते वयममीदाराः इत्याद्युक्तम् सर्वम् अतः परम् अतोऽधिकमपि त्वयि उपपन्नम् युज्यते तथा हि ते मनसः शिखराणाञ्च समुन्नतिः सदृशी शिखराणीव मनः महोन्नतमित्यर्थः किन्नाम दुष्करम् उन्नतचित्तानामिति भावः प्रस्तुताप्रस्तुतयोः मनःशिखरयोः औपम्यस्य गम्यत्वात् दीपकालङ्कारः
स्थाने त्वाम् स्थावरात्मानम् विष्णुमाहुस्तथा हि ते चराचराणाम् भूतानाम् कुक्षिराधारताम् गतः
स्थान इति त्वाम् स्थावरात्मानम् स्थावररूपिणम् विष्णुम् आहुः स्थावराणाम् हिमालयः इति गीतावचनात् स्थाने युक्तम् युक्तार्थे अव्ययमेतत् युक्ते द्वे साम्प्रतम् स्थाने इत्यमरः तथा हि ते तव कुक्षिः चराचराणाम् जङ्गमस्थावररूपिणाम् भूतानाम् पृथिव्यादीनाम् आधारताम् गतः तवेव विष्णोः कुक्षिः एवम्भूतः इति भावः
कामधास्यत् कथम् नागः मृणालमृदुभिः फणैः आरसातलमूलात्वम् अवालम्बिष्यथा न चेत्
गामिति नागः शेषाहिः मृणालमृदुभिः विसकोमलैः फणैः गाम् भुवम् कथम् अधास्यत् धारयेत् त्वम् आरसातलमूलात् पातालपर्यन्तम् विकल्पादसमासः नावालम्बिष्यथाश्चेत् पादैः नावलम्बथा यदि त्वदवलम्बनादेव भुजगराजोऽपि भुवम् बिभर्तीत्यर्थः अत्र क्रियातिपत्यभावात् लृङ्प्रयोगः चिन्त्यः
अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश्च ते
अच्छिन्नेति अच्छिन्नाः अविच्छिन्नाः अमलाश्च सन्तानाः प्रबन्धाः प्रवाहाश्च यासाम् ताः तथोक्ताः समुद्रोर्मिभिः अनिवारिताः पारगमनात् अन्तःप्रवेशाच्चेति भावः ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात् पवित्रत्वात् लोकान् पुनन्ति पावयन्ति
लोकपावनाः खलु पुण्यश्लोकाः इति भावः
केवलप्रकृतविषयः तुल्ययोगितालङ्कारः
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया
यथैवेति गंगा भागीरथी प्रभवति अस्मादिति प्रभवः तेन कारणेन परमे तिष्ठतीति परमेष्ठिनः विष्णोः परमे कित् प्रत्ययः तत्पुरुषे कृति बहुलम् इत्यलुक् परमे बर्हिर्दिव्यग्निभ्यः स्थः इति षत्वम् पादेन चरणेन यथैव श्लाघ्यते प्रशस्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाघ्यते हरिचरणवत् तीर्थस्यापि तीर्थभूतः त्वमिति भावः
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः त्रिविक्रमोद्यतस्यासीत् स तु स्वाभाविकस्तव
तिर्यगिति तिर्यक् ऊर्ध्वम् अधस्ताच्च व्यापकः सर्वव्यापीत्यर्थः महिमा महत्वम् हरेः विष्णोः त्रिषु विक्रमेषु उद्यतस्य सतः आसीत् त्रिविक्रमोद्यतस्य अस्ति कदाचिदेव न तु सर्वदा इत्यर्थः तव तु व्यापकः महिमा स्वाभाविकः नित्यसिद्धः इत्यर्थः
यज्ञभागभुजाम् मध्ये पदमातस्थुषा त्वया उच्चैर्हिरण्मयम् शृङ्गम् सुमेरोर्वितथीकृतम्
यज्ञेति यज्ञभागभुजाम् इन्द्रादीनाम् मध्ये पदमातस्थुषा निहितवता त्वया उच्चैः उन्नतम् हिरण्यस्य विकारः हिरण्मयम् दाण्डिनायन हास्तिनायन इत्यादि निपातनात् साधुः सुमेरोः शृङ्गम् शिखरम् प्राधान्यम् च ध्वन्यते शृङ्गम् प्राधान्यसान्वोश्च इत्यमरः वितथीकृतम् व्यर्थीकृतम् तस्य यज्ञभागाभावादिति भावः अस्य तु तत्सद्भावे प्रमाणम् हिमवतो हस्ती इति श्रुतिः
काठिन्यम् स्थावरे काये भवता सर्वमर्पितम् इदम् तु ते भक्तिनम्रम् सताम् आराधनम् वपुः
काठिन्यमिति भवता सर्वम् काठिन्यम् अनम्रत्वमित्यर्थः स्थावरे स्थिरे काये शिलामये इत्यर्थः अर्पितम् न्यस्तम् सताम् अर्हताम् आराधनम् पूजासाधनम् ते इदम् वपुस्तु जङ्गममित्यर्थः भक्तिनम्रम् काठिन्यलेशोऽपि अत्र नास्ति अन्यथा नम्रत्वासम्भवादित्यर्थः तथा च असाधारण्यम् ध्वन्यते
तदागमनकार्यम् नः शृणुकार्यम् तवैव तत् श्रेयसामुपदेशात्तु वयमत्रांशभागिनः
तदिति तत् तस्मात् नः अस्माकम् आगमनस्य कार्यम् प्रयोजनम् शृणु तत्कार्यम् च तवैव न तु अस्माकम् इत्यवधारणार्थम् एवकारः वयम् तु श्रेयसाम् उपदेशात् अत्र कार्ये अंशभागिनः त्वमेवात्र फलभाक् वयम् उपदेष्टारः इति भावः
अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम् शब्दमीश्वर इत्युच्चैः सार्धचंद्रम बिभर्तियः
अणिमेति यः शंभुः अणिमादिगुणोपेतम् अणिमादिभिः अष्टभिः गुणैः वाच्यभूतैः उपेतम् अष्टैश्वर्यवाचकमित्यर्थः अत एव अस्पृष्टम् पुरुषान्तरम् येन तम् तथोक्तम् पुरुषान्तरस्य अनभिधायकम् तस्यैव एवम् गुणत्वादित्यर्थः उच्चैः परमम् ईश्वर इति शब्दम् निरुपपदेश्वरशब्दमित्यर्थः सार्धचन्द्रम् अर्धचन्द्रयुक्तम् अर्धचन्द्रम् चेत्यर्थः बिभर्ति